என்ன ஸ்டெர்லிங் விஜய் சுபேர் நீங்க பாக்குது மெல்ல ப்ரோ
ஹலோ ஹலோ
இஸ் அம்மா ஸ்விட்ச் அம்மா
ஃபாத்திமா
எக்ஸாம்பிள் மிஸ்க
ஆஷன் எம்பி ப்ளோயினோ வாஸ் ஹோல் ஹோஸ்ட் போர்ட்டோ பிங் பாலகோ ஹோஸ்ட் ஜோ சூப்பர் மஹல் லைவ் கத்தலாப்ரோ
ஏசி
நாவல் ஹோஸ்ட் இதெல்லாம் லைக் யாரோ குட்டை சொல்போ தர்மியலு சத்து
அவனி ஏசா பிசனோ ட்ரோ ደንበኛ ሲሆን ቢዚያይዱትን ወይ ደግሞ ሲነበሩት ንገሩኝ። ድምፆትን ትንሽ ይርቃል፣ ድምፆትን ትንሽ ይርቃል። ድምፆትን ቀረብ ያርጉልኝ እና ሲነበር ወይ ደግሞ ቢዚያይዱትን ንገሩኝ እንድመዘግብሉ። እኔ ጋር ነው የሚመዘገበው። ቢዚያይዱትን ወይ ደግሞ ሲነበሩትን ንገሩኝ።
አይድ ነምበሬ
36 ይቅርታ ደመኛችን፣ ድምፆት ይርቃል አይሰማም።
ስልኩን እንዴት ላድርገው እማዬ?
እሺ
አይሰማም። 36
እሺ፣ መስመር ላይ ጠብቁኝ። ሌሎት አዲስ ኤስኤምኤስ አልገባለሁትም። በስልኮት አልተላከለሁትም።
ምንም አልተላከልኝም።
እና ከሆነ በዚህ ሊመጣልኝ ስላልቻለ ቲን ነምበር ይንገሩኝ። የግብር የሚከፍሉበት ቁጥር አለ አይደል?
አለ። 30
30
43 93
6 76 እሺ፣ እባክዎት መስመር ላይ ጠብቁኝ። ሊሉት ሙሉ ስሞት ማን ይባላል? የእርሶ ሙሉ ስም? ይሰማል?
አቤት።
ሙሉ ስሞትን ይንገሩኝ። የእርሶ ሙሉ ስም? በደወሉ ስልክ ለመዝገብ ወይስ ሌላ ቁጥር ይሰጡኛል?
አቤት።
ሌላ ቁጥር ይሰጡኛል ወይስ በደወሉ ስልክ ለመዝገብ?
ይኸው ነው ቁጥሬ፣ የደወልኩት ነው ቁጥሬ።
እሺ፣ ግን ቅድም በሰጡኝ ሲን ነበር አልመጣልኝም። እስኪ ደግሜ ልንገሮ፣ ቼክ ያርጉልኝ። 30 43 93 67
6 6 7 8 6 7 8
እሺ፣ እስኪ በዚህ ልይ። እሺ፣ የድርጅቶት ምን ይባላል?
ለምለም ግሮሰሪ።
የት አካባቢ ነው?
ደቡ ጋራው ላይ በጋርመንት ሀይሌ ጋርመንት ባዳሉ ጎደና ወደ ላይ ወጣ ብለሽ ከማዲያው ሁለተኛው ቅያስ ላይ በሁለተኛው ቅያስ
ሰለመኛች ተቆራረጠና በመሀል አልሰማሁትም። ለቡ የቱ ጋር?
በጋርመንት ሶቂ ኖክ ማዲያ አለ።
እሺ፣ ኖክ
ከኖክ ወጣ ብለሽ ትንሽ ሄድ ብለሽ ሁለት ቅያሶች አሉ። በሁለተኛው ቅያስ ወደ ላይ
እየተሰማኝ ስላልሆነ ወይኔ ተበልሽ ይደውልሉት።
እሺ
እሺ ልደውልሉት እኔ